सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारंभं करिष्यामि सिद्धिर् भवतु मे सदा। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक् वंदे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वंदे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वंदे संस्कृतमातरम्। वंदे संस्कृतमातरम्। ओम सर्वेषां नमस्कारः। वयं भोजचम्पू रामायणस्थ सुन्दरकाण्डस्य अध्ययने सम्प्रति षड्विंशति तमं श्लोकं पठितुं सज्जाः। अत्र प्रसङ्गः कः इति चेत्, त्रिजटा शुभस्वप्नवार्तां श्रावितवती। स एव स्वप्नः सीतायाः देवानां च कृते सूचकः। परं रावणस्य राक्षसानां कृते च, ये दुष्टराक्षसाः ये सीतायाः प्रातिकूल्यम् आचरन्ति तेषां कृते अशुभसूचकः स्वप्नः इति अस्माभिः पूर्वं दृष्टम्। तस्याः स्वप्नवृत्तान्तः श्रुतः सीतादेव्या। तदा त्रिजटा स्वप्नवृत्तान्तं राक्षसीः श्रावयति। निभृतं निवार्य ताः राक्षसीः श्रावयति। कीदृशीः राक्षसीः श्रावयति इत्युक्ते, याः राक्षस्यः सीतां तर्जयन्त्यः आसन् ताः। तत्र तन्मध्ये सीतादेवी अपि निराशा हताशा च आत्मत्यागाय यतमाना आसीत्। तस्मिन् समये आञ्जनेयः चिन्ताम् अकरोत्, एषा रक्षणीया न उपेक्षणीया, तपस्विनी तपः कृत्वा कुर्वती अत्यन्तं कृशा जाता अस्ति, तादृशी एषा रक्षणीया। तदनन्तरम् आत्मत्यागाय स्पृहयन्त्यां मैथिल्यां मारुतिः इयम् अनुपेक्षणीया तपस्विनी नीतिम् अमुञ्चति इति चिन्तां परिगृह्य, चिन्तां कृत्वा अस्याः नेदीयान् बभूव। अस्याः वृक्षे एव, इतोपि न अवतीर्णवान्, वृक्षस्थः एव, इतोपि यत्र सीता भूमौ आसीत् तस्य इतोपि समीपतरशाखायाम् उपविष्टः इति अर्थः। इत्युक्ते झटिति अवतीर्य सीतायाः पुरतः यथा आगन्तुं शक्यं तथा उपविष्टः इति तत्र भावः। अत्र अस्माभिः अवलोकितम् एकं पदम्, अत्र तपस्विनी इति पदम्, तपः कार्ष्ये इति यः तपः स्वेच्छया करोति तस्य शरीरं कृशं भवति। कारणम् उपवास व्रत तपश्चर्या इत्यादि करणेन। अत्र सीतादेवी अपि पातिव्रत्यधर्मम् आचरन्ति, वैराग्यशीला, अतः तपः करोति। तपः आचरणेन किं भवति, सा अपि कृशा भवति। अतः तपस्विनी या तपोधना अस्ति तादृशी अपि तपः आचरितवती इति कारणेन कृशा अपि जाता, तादृशी तपस्विनी इति प्रभावः. इदानीं वयम् आगामि श्लोकं पठिष्यामः. ततः तदनन्तरं किम् अभवत्? आञ्जनेयः वृक्षस्थः एव किमपि वक्तुम् आरब्धवान्. किं वक्तुम् आरब्धवान् इत्युक्ते रामकीर्तनं कथयितुम् आरब्धवान्. तद् श्रुत्वा सीतायाः मनसि विश्वासः भवेत्. तदर्थं सः रामाभिकीर्तनमधूनि न्यषिञ्चत् इति अत्र पद्यमस्ति. तत् पद्यं वयं पठामः. देव्या दशाननवचोमयवज्रदीर्णकर्णान्तरव्रणविरोपणभेषजानि एकवाक्यमस्ति, अहं मन्दं पठामि. देव्या दशाननवचोमयवज्रदीर्ण कर्णान्तरव्रणविरोपणभेषजानि विस्रम्भणार्थमयम् अन्वयसङ्गतानि रामाभिकीर्तनमधूनि शनैर्न्यषिञ्चत् पदच्छेदं पश्यामः. देव्याः दशाननवचोमयवज्रदीर्णकर्णान्तरव्रणविरोपणभेषजानि विस्रम्भणार्थम् अयम् अन्वयसङ्गतानि रामाभिकीर्तनमधूनि शनैः न्यषिञ्चत्. सीतादेव्याः कर्णविवरम् इदानीं विदीर्णमस्ति, क्षतमय क्षतपूर्णमस्ति, के क्षतयुक्तमस्ति कर्णः. केन कारणेन तथा अस्ति इति चेत्, रावणेन अवाच्यम् उक्तमासीत्, पुनः राक्षस्यः अपि ताः भूरि तर्जयन्ति स्म. तद् परुषवचनं श्रुत्वा श्रुत्वा तस्याः कर्णः व्रणितः. एवं सति व्रणित चर्म अस्ति चेत्, शरीरस्य भागः अस्ति चेत्, तस्य कृते वै औषधं किं, भेषजं किं, किमपि लेपनं वा औषधं वा लेपयन्ति, अथवा औषधि तद् लेपयन्ति. अत्र कर्णपुटं व्रणितम् इत्युक्ते किं, तस्य मनः अत्यन्तं खिन्नं, दुःखितं. तादृशमनसः कृते भेषजं किं भवति? मधुरवचनमेव. अतः अत्र कविः वदति रामाभिकीर्तनमधूनि. मधु कथं भवति? मधुरं भवति. तथा मधूनि वचनानि एव मधूनि. तानि मधूनि सः शनैः न्यषिञ्चत्, तस्य सेचनं कृतवान् आञ्जनेयः. यथा शनैः शनैः कस्यचित् वृक्षस्य वा बाललतायाः वा कृते जलं यच्छन्ति, तथा सिक्तवान्. तदेव अत्र इदानीं वयम् एतस्य अन्वयं द्रक्ष्यामः. आकाङ्क्षापद्धत्या क्रियापदं किमस्ति? न्यषिञ्चत्, निषिक्तवान्, सेचनम् अकरोत्, निषेचनम् अकरोत् इत्युक्ते तत्र पातितवान् इति अर्थः. तादृशमधूनि पदानि तस्याः कर्णपुटे कर्णविवरे पातितवान्. कः न्यषिञ्चत्? अयम्, अयं हनुमान्. अयं कानि न्यषिञ्चत्? रामाभिकीर्तनमधूनि न्यषिञ्चत्. रामस्य कीर्तन रूप सुधां तदेव अभिषिक्तवान्, निषिक्तवान्, पातितवान्. कीदृशानि रामाभिकीर्तनमधूनि? अन्वयसङ्गतानि, नाम तद् सम्बद्धानि, तत् सम्बद्धविषयान् उक्तवान्। अन्वयम् इत्युक्ते यद् श्रावयितुं योग्यं तादृशम्। पुनः कीदृशानि? रामाभिकीर्तनमधूनि दशानन वचोमय वज्रदीर्ण कर्णांतर व्रणविरोपण भेषजानि, दीर्घतम तरं पदमस्ति। दशानन रावणस्य वचनानि एव वज्रम्, वज्रम् इत्युक्ते कठोरवचनं किल, अतः वज्रस्य पदस्य प्रयोगः कृतः। दशाननस्य वज्रसदृशकठोर वचनैः सीतादेव्याः कर्णः विदीर्णः, शतग्रस्तः अभवत्। तस्य व्रणविरोपणं, तेन यद् व्रणः व्रणं जातं तस्य शमनाय, किं भेषजं, भेषजरूपम् अस्ति एतद् वचनम्, आञ्जनेयस्य वचनम्। अतः विरोपणभेषजानि, किमर्थं न्यषिञ्चत्? विस्रम्भणार्थं, विश्वासोत्पादनार्थं। कस्याः विस्रम्भणार्थं? देव्याः। कथं न्यषिञ्चत्? शनैः शनैः न्यषिञ्चत्। अन्वयः भवति ततः देव्याः विस्रम्भणार्थम् अयं दशानन वचोमय वज्रदीर्ण कर्णांतर व्रणविरोपण भेषजानि अन्वयसङ्गतानि रामाभिकीर्तन मधूनि शनैः यशिञ्चत्। प्रतिपदार्थं पश्यामः। ततः तदनन्तरं, कस्य अनन्तरं? यदा आञ्जनेयः इतोपि समीपतरः आगतः, चिन्तां परिगृह्य एषा अनुपेक्षणीया, एषा रक्षणीया इति भावेन सः यदा समीपतरम् आगतवान्, तदा समीपतरम् आगत्य एव किल वक्तुं शक्नुयात्। अतः ततः तदनन्तरं देव्याः, सीतादेव्याः विस्रम्भणार्थं, विश्वासार्थं, प्रत्ययार्थं, विश्वासम् उत्पादयितुम् अयं हनुमान् दशानन वचोमय वज्र दीर्ण कर्णांतर व्रणविरोपण भेषजानि, दशाननस्य वचनानि, कीदृशवचनानि? वज्रतुल्यवचनानि। एकं तु वज्रम् इति कठोरं वस्तु, अनन्तरं वज्रम् इति विशेषणमपि भवति, वज्रवर् वचनम् इत्युक्ते कठोरवचनं, तथापि प्रयोगः दृश्यते। अतः वचोमय वज्रदीर्ण, तेन कठोरवचनेन तस्याः दीर्णकर्णान्तर, दीर्णकर्णपुटं, विदीर्णम् इत्युक्ते छिन्नम्, तत्र व्रणः एव जातः, कर्णान्तरव्रण, तादृशव्रणस्य विरोपणं, विरोपणम् इत्युक्ते प्रशमनं, हीलिङ्ग्, तस्य व्रणस्य विरोपणाय भेषजानि वचनानि, औषधसदृशवचनानि, अन्वयसङ्गतानि, अन्वयसङ्गतानि इत्युक्ते सम्बद्धानि, वक्तुं योग्यानि, कालदेशोचितं वक्तव्यम् इति वदन्ति किल। अतः अत्र आञ्जनेयः यद्यपि रामाभिकीर्तनविषये ख्यगुणाः तस्य सन्ति, के गुणाः अत्र कीर्तनीयाः इति विचिन्त्य आञ्जनेयः स्ववचनानि मन्दं मन्दं सः प्रकटयति। रामस्य स्तुतिपराणि वचनानि एव सर्वाणि, किन्तु कानि अत्र वक्तव्यानि, कानि न वक्तव्यानि इति ज्ञात्वा सः वदति। रामस्य स्तुति, राम अभिकीर्तनम्, रामस्य स्तुति पर मधुनी, मधुनी इत्युक्ते सुधामय वचनानि। अत्र दशानन वचोमय इति अस्ति किल, मयट् प्रत्ययः, मय इत्युक्ते मयट् इति कश्चन प्रत्ययः, प्रचुरार्थे मयट् प्रत्ययः भवति, यद् आधिक्येन भवति चेत् मयट् इति प्रत्ययस्य प्रयोगः भवति। यदा जलौघः फ्लड्स् भवति तदा नदी जलमयी भवति, समुद्रः समुद्रतीरः जलमयः भवति, तथा मयट् प्रत्ययः। अत्र न केवलं धुत्रवचनानि, सः अनेकानि परुषवचनानि उक्तवान्। अतः वचोमय वज्रदीर्णकर्णान्तर व्रणविरोपण भेषजानि इति प्रयोगः। रामाभिकीर्तन मधूनि, कानि कानि अन्वयसङ्गतानि वचनानि अवदत् आञ्जनेयः? कुलस्य विषये वदति, दशरथस्य विषये, जनकस्य विषये। कुलस्य विषये श्रुत्वा कस्यापि सन्तोषः भवति खलु, अतः आदौ आञ्जनेयः एवम् आरम्भं करोति, राजा दशरथो नाम रथकुञ्जरवाजिमान् इति आरम्भं कृत्वा एव स्ववचनानां प्रकटनं करोति। अतः कुलस्य विषये वदति। अनन्तरम् इदानीम् अस्तु, कुलम् उत्तमं स्यात्, किन्तु इदानीम् एतावत्पर्यन्तमपि मम रक्षणं किमर्थं न जातम् इति सीतादेव्याः मनसि प्रश्नः भवति। तस्य प्रश्नस्य समाधानं वक्तुमिव सः वदति, सुग्रीवेण सख्यं जातं, शीघ्रमेव रामः अत्र आगच्छति, देवी भवत्याः रक्षणं करिष्यति इति। सुग्रीवसख्यं, वालिहननम्, एतादृश सीतादेव्याः मनसि यथा विश्वासः अधिकः भवेत् तादृशघटनाः विचिन्त्य आञ्जनेयः वदति। अतः एव सः वचनकुशलः किल, अतः सः एतादृशवदानि अन्वयसङ्गतानि वचनानि वदति। पुनः तानि रामाभिकीर्तनमधूनि, सुधामयानि वचनानि, श्रोतुम् अत्यन्तं मधुरम्, अत्यन्तं श्रव्यमस्ति, श्रोतुं योग्यमस्ति सीतादेव्याः कृते। पुनः शनैः न्यषिञ्चत्, मन्दं मन्दं निषिक्तवान्, मन्दं मन्दं तानि वचनानि पातितवान्। एकं तु मृदु अस्ति सीतादेवी, पुनः तस्याः मनः इदानीं खिन्नम् अस्ति, दुःखितं। यदा मनः विचलितं भवति अथवा अत्यन्तं हर्षमयं भवति तदा ग्रहीतुं किञ्चित् कष्टं भवति। अतः मन्दमेव तस्य समीपे वक्तव्यं वचनं, यस्य कस्यापि समीपे। अत्र सीतादेव्याः मनसः स्थितिं ज्ञात्वा शनैः, यथा भयमपि न स्यात् तथा शनैः शनैः न्यषिञ्चत्, तादृशवचनानि सः पातितवान्, तस्याः कर्णे निषिक्तवान्। यथा कश्चन शुष्कलतायाः कृते जलधारां निषिञ्चति, जलधारया लतायाः सेचनं करोति। पूर्वं सीतालता इति उक्तं किल, अतः कवेः अपि तद् पदप्रयोगस्य सङ्गतं यदि सङ्गच्छति किल, पूर्वं सीतालता इति उक्तम्, इदानीं न्यषिञ्चत्, तादृशलतायाः सीतालतायाः कृते एतानि मधुसदृश वचनानि, शुष्कलतायाः कृते जलवत् कार्यं करोति, मन्दं मन्दं सः एतानि वचनानि वदति इति भावार्थः। तदनन्तरं देव्याः विश्वासोत्पादनार्थम् अयम् आञ्जनेयः दशाननवचोमय वज्रदीर्णकर्णान्तरव्रणविरोपणभेषजानि रावणस्य यत् वज्रस्तुल्य कठोरवचनाना वचनैः विदीर्ण कर्णान्तरं यस्याः सीतायाः, तादृशव्रणितकर्णपुटं तस्य व्रणितकर्णपुटस्य विरोपणं, प्रशमनं, विरोपणार्थं भेषजतुल्यम् अस्ति एतत् वचनं। भेषजम् इत्युक्ते औषधं। पुनः सम्बद्धानि अन्वयसङ्गतानि रामाभिकीर्तनमधूनि, रामस्य कीर्तनं यत् करोति तद् वचनं वदति, शनैः शनैः वदति न्यषिञ्चत्। किमर्थं रामाभिकीर्तनं करोति? केवलं साक्षात् आगत्य वक्तुं शक्यं किल? अहं रामस्य दूतः, अहम् अत्र आगतवान् अस्मि, भवत्याः रक्षणं शीघ्रमेव भवति। रामस्य कीर्तनं करोति चेत् एकं तु सीतादेव्याः मनसि विश्वासः उत्पन्नः भवति, अयम् अस्मदीयः इति। पुनः रामस्य विषये अधिकं जानाति इति विश्वासः अपि भवति। अनन्तरं तद् श्रुत्वा सीतादेवी शनैः शनैः तस्याः मनसि विद्यमानशङ्का गता भवेत् इति आञ्जनेयस्य अत्र उद्देशः। अग्रिमं गद्यभागः अस्ति, तत् पठामः। अहं पठामि, कृपया वदन्तु। समन्तात् प्रसारित नयनाजनकतनया तस्यां शाखायां शाखा मृगमुद्वीक्ष्य दुःस्वप्नबुद्ध्या चकित हृदया सलक्ष्मणाय रामाय भर्त्रे भद्रम् आशंसमाना जनम् इमं दुरापस्वापम् कथमाप्नुयात् इति विचिन्त्य स्वप्नः कथमाप्नुयात् इति विचिन्त्य मायया समायत समायात नैरृतपति बुद्ध्या यस्मात् मारुतपुत्रात् तत्रास एतद् वचनं श्रुत्वा सीतादेवी सर्वतः पश्यति, सर्वदिक्षु पश्यति, कः वदति इति। तदा सा उद्वीक्ष्य उपरि पश्यति, अनन्तरं चकिता भवति, भीता भवति। अयं मायावी रावणः एव पुनः अन्यरूपं धृत्वा आगतवान्, कामरूपी अस्ति किल, अतः अन्यं रूपं धृत्वा अत्र आगतवान् अस्ति इति। तत्रा सा भीतिं प्राप्तवती सा इति अत्र भावः। एकैकमपि पदं वयं पश्यामः अत्र। तदनन्तरं यदा मारुतिः समीपतरं वृक्षे एव उपविष्टः, इतोपि वृक्षशा यत्र सीता आसीत् तत्र समीपतरम् आगत्य वृक्षादेव वचनानि मधु रामकीर्तनवचनानि यदा श्रावितवान् तदनन्तरं समन्तात् प्रसारित नयना जनकतनया समन्तात् सर्वतः सर्वदिक्षु प्रसारित नयना जनकतनया प्रसारितं प्रसारिते नयने यया या स्वे नेत्रे सर्वत्र प्रसारितवती स्वदृष्टिं सर्वत्र प्रसारितवती सा जनकतनया जनकसुता तस्यां शाखायाम् उपरि विद्यमानशाखायां शाखामृगं वानरं शाखामृगः नाम वानरः शाखामृगम् उद्वीक्ष्य उपरि दृष्ट्वा उद्वीक्ष्य इति किमर्थम् उक्तम् अत्र सीतादेवी अधः भूमौ अस्ति लुठन्ती आसीत् इति वयं दृष्टवन्तः आञ्जनेयः कुत्र अस्ति शाखायाम् अस्ति उपरि शिशपावृक्षस्य उपरि अतः उपरि दृष्टिं प्रसार्य उद्वीक्ष्य उत् इति उपसर्गः भवति चेत् उपरि इति भावः उद्वीक्ष्य दुःस्वप्नबुद्ध्या तस्याः मनसि कश्चन संशयः काचन शङ्का ओ दुःस्वप्नः मया दृष्टः दुःस्वप्नबुद्ध्या चकितहृदया चकिता इत्युक्ते भीता भीतहृदया चकितमनाः अभवत् सा आश्चर्यचकितः इत्युक्ते आश्चर्येण भीतः अपि इति अर्थः तत्र चकितहृदया भीतहृदया सलक्ष्मणाय रामाय भर्त्रे लक्ष्मणेन सहितः रामः भर्ता अस्ति किल तस्मै भद्रम् आशंसमाना रामलक्ष्मणयोः शुभं भूयात् भद्रं भूयात् अयं मायावी राक्षसः किमपि कर्तुं समर्थः तयोः सुरक्षा स्यात् इति भद्रं शुभम् आशंसमाना मङ्गलम् आशंसमाना मङ्गलं कामयमाना सा जनम् इमं दुरापस्वापं स्वप्नः कथमाप्नुयात् इति विचिन्त्य सा स्वविषये एव चिन्तयति. अयं जनः अस्ति किल, एषः जनः, अस्य तु निद्रा एव नास्ति. एषः जनः इत्युक्ते सा एव सीतादेवी एव. अयं जनः स्वप्नमेव न प्राप्नोति. स्वप्नः इत्युक्ते निद्रा. संस्कृतभाषायां शयनं, स्वापः, स्वप्नः, निद्रा इति समानार्थकपदानि. निद्रा स्वप्नः इति अत्र अभिन्न भिन्नपदे न. अतः मम तु निद्रा एव नास्ति. निद्रायाः अभावे कुत्र स्वप्नः? स्वप्नस्य तु सङ्गतिः एव नास्ति. जनम् इमम् एतं जनं दुरापस्वापम् एतं जनं. मम तु दुरापस्वापः अस्ति अयं जनः. अहं कीदृशी अस्मि? दुरापस्वापः अस्मि. दुःखेन स्वापः प्राप्यते, अतः दुरापस्वापः जनः. पुल्लिङ्गे वदति अयं जनः इति आत्मानं. यस्य स्वप्नः एव दुर्लभः, निद्रा एव दुर्लभा, स्वप्नः कथम् आप्नुयात्? कथं स्वप्नः आगच्छेत्? कथं मया स्वप्नः दृष्टः इति विचिन्त्य, इति विचार्य मायया समायात नैरृतपतिबुद्ध्या. नैरृतपतिः इत्युक्ते राक्षस स्वामी, राक्षसनाथ, राक्षसेन्द्रः, रावणः. ओ, मायया सः पुनः अपि अन्यं वेषं धृत्वा आगतवान् अस्ति. मायया समायात नैरृतपतिबुद्ध्या तस्मात् मारुतपुत्रात् तत्रास. तस्मात् तं दृष्ट्वा मारुतपुत्रात् हनुमतः तत्रास भीतिं प्राप्तवती. भीतिं प्राप्तवती, भयं प्राप्तवती इति भावः. समायात इत्युक्ते समागत. मायया पुनः अत्र आगतवान् अस्ति मायावी सः इति विचिन्त्य तस्मात् मारुतपुत्रात् तत्रास भीतिं प्राप्तवती. अत्र श्रीमद् वाल्मीकि रामायणे अपि समानविचारः अस्ति. स्वप्नो हि स्वप्नो हि नायं नहि मेस्ति निद्रा इति वदति. एषः स्वप्नः न, मम तु निद्रा एव नास्ति. तर्हि स्वप्नस्य का कः किं कथनं न भवति किल? प्रश्नः एव नास्ति स्वप्नस्य इति. अनन्तरं यथा यथा हनुमान् समीपमागच्छति तथा तथा तस्याः शङ्का वर्धते. यथा यथा समीपं सः हनुमान् उपसर्पति तथा तथा रावणं सातं सीता परिशङ्कते. एषः नूनं रावणः एव पुनः वेषं परिवर्त्य अत्र आगतवान् मां पीडयितुम् इति चिन्तयति सा देवी सीता. इदानीं वयम् अग्रिमं गद्यभागं पठामः.
जनकपुत्रीं
प्रत्याययितुम् आञ्जनेयः कृताञ्जलिः व्यजिज्ञपत्.
आञ्जनेयः कृताञ्जलिः व्यजिज्ञपत्
व्यजिज्ञपत् सः आञ्जनेयः अपि अन्वयः भवति. एवम् आञ्जनेयः अपि समवतीर्य. इदानीम् अवतीर्णवान्, उपरि आसीत्, उपरि स्थितः एव सः वचनानि उक्तवान्. मधूनि वचनानि रामाभिकीर्तन मधूनि न्यषिञ्चत् इति दृष्टवन्तः किल श्लोके. सः स च आञ्जनेयः अवतीर्णवान् समवतीर्य वचनवैचित्र्यात्. सः वचनकुशलः अस्ति, अतः विस्मयकरवचनानि उक्त्वा वचनवैचित्र्यात् जनकपुत्रीं सीतादेवीं प्रत्यायितुं विश्वासम् उत्पादयितुं तस्यां कृताञ्जलिः अञ्जलिं बद्ध्वा व्यजिज्ञपत् ज्ञापितवान् उक्तवान् इति अर्थः यजिज्ञपत्। अद्यतन लुङ्लकारः वि उपसर्गपूर्वक अजिज्ञपत् लुङ् अद्यतन लुङ्। सः आञ्जनेयः अपि पुनः वृक्षस्य अधः आगत्य वचनवैचित्र्यात् वचनकौशलेन सुन्दरवचनैः जनकपुत्रीं विश्वासयितुं कृताञ्जलिः सन् अञ्जलिमुद्रां बद्ध्वा विनयेन स्ववचनं निवेदितवान्। तत्र श्रीमद्वाल्मीकिरामायणे एवमस्ति, विश्वासार्थं तु वै देहि भर्तुरुक्ता मया गुणाः अचिरात्वामितो देवि राघवो नयिता ध्रुवम्। तव विश्वासार्थमहम् एतानि वचनानि वदामि। कानि वचनानि? रामाभिकीर्तन, रामस्य गुणकीर्तनं यानि वचनानि कुर्वन्ति तादृशवचनानि वदामि। अचिरात् शीघ्रमेव त्वाम् इतः राघवः नयिता भवति। नयिता इत्युक्ते नेष्यति, अद्यतन भविष्यत्काल नयिता इत्युक्ते नेष्यति इति अर्थः। इदानीम् अग्रिमश्लोकः